कर्मजं बुद्धियुक्ता हि
कर्मजं बुद्धियुक्ता हि
फलं त्यक्त्वा मनीषिणः
फलं त्यक्त्वा मनीषिणः
जन्मबन्धविनिर्मुक्ताः
जन्मबन्धविनिर्मुक्ताः
पदं गच्छन्त्यनामयम्